अखंडे सच्चिदानंदे निर्विकल्पैकरूपिणी स्थिते अद्वितीय भावेस्मिन् कथं पूजा विधीयते। पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनं स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् निर्लेपस्य कुतो गन्ध पुष्पं निर्वासनस्य च निर्विशेषस्य काभूषा को अलंकारो निराकृते। निरञ्जनस्य किं धूपै दीपैर्वा सर्वसाक्षिणः निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह। विश्वानन्दपितुस्तस्य किं ताम्बूलं प्रकल्प्यते स्वयं प्रकाशचिद्रूपोयो असावर्काधिभासकः। प्रदक्षिणा हि अनन्तस्य यद्वेयस्य कुतोनतिः वेदवाक्यैरवेद्यस्य कुतस्तोत्रं विधीयते। स्वयं प्रकाशमानस्य कुतो निरांजनं विभो अन्तर्बहिश्च पूर्णस्य कथं उद्वासनं भवेत्। एवमेव परा पूजा सर्वावस्थासु सर्वदा एकबुद्ध्या तु देवेशे विदेया ब्रह्मवित्तमैः। आत्मा त्वं गिरिजामतिः सहचराः प्राणाः शरीरं गृहं पूजाते विविधोपभोगरचना निद्रासमाधिस्थितिः सञ्चारपदयो प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो यद्यत् कर्म करोमि तद्दखिलं शंभो तवारा।